सर्वेभ्यो नमस्कारः, सर्वेषां स्वागतम्। अद्य प्रवर्तमानविषयः अस्ति षष्टिविभक्तिविषये। गतवर्गे वयं षष्टिविभक्तिविषये वयं पठितवन्तः। तस्मिन् विषये यद्विषयं वयं पठितवन्तः तस्मिन् विषये प्रश्नाः सन्ति वा? अहं करपत्रम् एकं करपत्रमपि प्रेषितवती, सर्वे दृष्टवन्तः वा?
आं भगिनि।
सुलभः अस्ति वा, कठिनः अस्ति वा, लाभाय आसीत् वा?
सुलभः अस्ति भगिनि,
लाभाय भवति इति चिन्तयित्वा अहं प्रेषितवती।
आं भगिनि,
आं भगिनि,
अस्तु अस्तु अस्तु, एकनिमिषम् अग्रे गच्छामः किल? अस्तु, अग्रे गच्छामः। नूतनपाठः, नूतनपाठः इत्युक्ते दशमपाठः, गीतासोपानं दशमपाठं वयम् इदानीम् आरम्भं कुर्मः। पुटसङ्ख्या अस्ति चतुर्विंशतितमपुटे। सर्वेषां पार्श्वे पुस्तकम् अस्ति वा इति अहं न जानामि। नास्ति चेत् कस्मिन् पार्श्वे पुस्तकं नास्ति इति वदति वा? वदति चेत् तम् अहं न उद्दिश्य अहं न पठतु इति न पृच्छामि। अस्तु, सर्वेषां पार्श्वे अस्ति चेत् क्रमेण एव अहं पृच्छामि। अस्तु, जानकी भगिनी, जानकी भगिनी अस्ति वा?
आं भगिनि।
अस्तु, समीचीनम्। अस्तु, दशमपाठम् आरम्भं करोति वा? तस्य तस्य च ला श्रद्धा इति पाठस्य आरम्भः।
तस्य तस्या च ला श्रद्धा,
तस्या च ला श्रद्धा इत्युक्ते इति पाठः शीर्षकम् अस्ति। एतद् वाक्यं कुत्र अस्ति चेत् भगवद्गीतायां सप्तम अध्यायां एकविंशति श्लोके अस्ति। तस्य अर्थः किम् इत्युक्ते श्लोकस्य नाम कथं भवति चेत् यो यो यां यां तनुं भक्तः श्रद्धयार्चितु मिच्छति तस्य तस्य चलां श्रद्धां तामेव विदधाम्यहम् इति अस्ति श्लोकमस्ति भगवद्गीतायां सप्तमश्लोके एकविंशति, क्षम्यतां, सप्तम अध्याये एकविंशति श्लोकमस्ति। तस्य अर्थः कः इत्युक्ते यः यः भक्तः यां यां तनुं नाम मूर्तिं, यां यां मूर्तिं श्रद्धया अर्चितुमिच्छति तस्य तस्य तामेव अचलां श्रद्धाम्। अचलाम् इत्युक्ते अन्शेकबल् इति वदामः किल, तादृशम् अचलां श्रद्धाम् अहं विदधामि, नाम तादृशीं स्थिरां श्रद्धाम् अहं करोमि इति भगवान् वदति। तस्य श्लोके तादृशवाक्यमस्ति तस्य तस्य चला श्रद्धा, तस्या चला श्रद्धा इति अस्ति। तस्मिन् श्लोके तनुः इति एकं पदमस्ति, तनुः इति पदमस्ति। तनुः तनुः इत्युक्ते मूर्तिः इति अर्थः। अवगच्छति वा सर्वे? जानकी भगिनी अवगच्छति वा?
आं भगिनि।
अस्तु, अग्रे पठतु। इदानीं पाठे किम् अस्ति इति अवधेयम् इति अस्ति किल, अग्रे पठतु कृपया।
मतिः एकवचनं, द्विवचनं, बहुवचनं। मत्याः मतेः, द्विवचनं मत्योः, बहुवचनं मतीनाम्।
सर्वे स्मरन्तु, मतिः इति शब्दः अस्ति मत्याः अथवा मतेः, मत्योः मतीनाम्। अत्र षष्टिविभक्तेः रूपद्वयम् अस्ति, मत्याः अथवा मतेः इति अस्ति। द्विवचने मत्योः बहुवचनं मतीनाम् अस्ति. अस्तु
अग्रे तनुः.
आम्
तनुः एकवचने एकवचने तन्वाः तनोः.
आम्
द्विवचने तन्वोः.
आम्
बहुवचनं तनूनाम्.
अस्तु अस्तु समीचीनम्. अत्र तनुः इत्युक्ते किं?
तनुः इत्युक्ते मूर्तिः.
आम् सत्यं सत्यम्. अनन्तरं चमूः.
चमूः चम्वाः द्विवचने चम्वोः बहुवचने चमूनाम्.
सत्यं सत्यम्.
अग्रे
चमुः इत्युक्ते किं भगिनि? वयं गतवर्गे पठितवन्तः खलु चमूः इत्युक्ते.
चमूः इत्युक्ते
गतवर्गे वयं पठितवन्तः चमूः इति शब्दस्य षष्टी बहुवचनमस्ति. चम्वाः चम्वोः चमूनाम् दीर्घ ऊकारन्त स्त्रीलिङ्गशब्दः अस्ति.
आम्
कमाण्डर् इन् चीफ् भगिनि आर्मि पर्सन्.
आम् चम्वाः नायकः दृष्टद्युम्नः. अस्तु सेना इति सेना सेना इति अर्थः. आम् सत्यं सत्यं तदेव अर्थः. अस्तु चमूः. अनन्तरम् अग्रे वधू स्त्रीलिङ्गरूपम् अस्ति. चमूः इति शब्दः स्त्रीलिङ्गरूपम् अस्ति. माता
माता मा एकवचने मातुः मातृः मातॄणां.
सत्यम्. अत्र मातॄणाम् इति शब्दे णत्वम् अस्ति वा?
आं भगिनि
सत्यम्. अनन्तरं किमर्थमस्ति?
किमर्थम् अत्र निमित्तम् अस्ति.
सत्यं सत्यं तावदेव पर्याप्तम्. अनन्तरं मतीनां तनूनां चमूनां तयोः मध्ये णत्वम् अस्ति वा?
न भगिनि.
किमर्थम्?
तत्र निमित्तं नास्ति भगिनि.
सत्यं बहु समीचीनं तावदेव तावदेव. मतिः इति शब्दस्य लिङ्गं किं?
मतिः शब्द स्त्रीलिङ्गं भगिनि.
तनुः
तनुः अपि तनुः
अत्र पदद्वयम् अस्ति चेत् तनोः तनोः इति पदद्वयम् अस्ति चेत् स्त्रीलिङ्गरूपमेव
स्त्रीलिङ्गरूपमेव.
आम् आम्. मतिः इकारान्तस्त्रीलिङ्गं, तनुः उकारान्त चमूः
चमूः ऊकारान्त ऊकारान्त स्त्रीलिङ्गं भगिनि.
सत्यं सत्यं. चमूः भूः वधूः इति तादृश तादृशं स्त्रीलिङ्गरूपम् अस्ति. माता
माता आकारान्त स्त्रीलिङ्गं भगिनि.
सत्यं वा? चिन्तयित्वा वदतु.
सारी ऋकारान्त स्त्रीलिङ्गं भगिनि.
सत्यं सत्यं सत्यम्. आम् आम्
मातृशब्दः.
आम् आम् आम्. इकारान्तस्त्री मतिः ह्रस्व इकारान्त तनुः ह्रस्व उकारान्त चमु स्त्रीलिङ्गरूपं चमूः दीर्घ
उकारान्त स्त्रीलिङ्गः.
आम् सत्यम्. अनन्तरं माता ऋकारान्तशब्दः. सत्यं सत्यम्. अस्तु धन्यवादः भगिनि.
धन्यवादः.
अग्रे सविता भगिनी अग्रे पठति वा?
अहं भगिनि. पश्यत उच्चैः पठत च. षष्टिविभक्तिः सर्वनामशब्दाः. ओके. एतस्य नाम विष्णुः. एतस्याः नाम लक्ष्मीः. एतस्य नाम एतस्याः लक्ष्मीः नाम लक्ष्मीः. करेक्ट् न भगिनि?
उच्चारणं समीचीनम् अस्ति वा इति दृष्ट्वा वदतु. एतस्याः नाम
लक्ष्मीः.
आम् इदानीं समीचीनम्.
ओके ओके ओके.
मतिः शब्दः अपि अस्ति. लक्ष्मीः शब्दः अस्ति किल, अतः तस्य तयोः
दीर्घ दीर्घ दीर्घ
सूचनम् आवश्यकमस्ति किल. आम् आम् अतः.
आं भगिनि, आं भगिनि. एतस्य नाम महाभारतम्.
एतस्य एतस्य इति अस्ति. एतस्य शब्दस्य इति शब्दस्य प्रातिपदिकं किम्?
एषः.
एषः प्रथमविभक्तिः.
प्रथमविभक्ति.
प्रातिपदिकं किम् अस्ति?
डकारान्तशब्दस्य.
डकारान्तशब्दस्य पुल्लिङ्गशब्दः इत्युक्ते एषः, एषौ, एषाः इति वक्तव्यं.
स्त्रीलिङ्गशब्दः
अस्ति चेत् एतद् एव प्रातिपदिकम् अस्ति, परन्तु स्त्रीलिङ्गरूपम् अस्ति चेत् एषा, एते, एताः इति भवति. नपुंसकलिङ्गशब्दः अस्ति चेत्
एतत् एव. एतत् तद् तदङ्कारशब्द भगिनि,
दकारान्त. एतद् इति प्रातिपदिकम् अस्ति. दकारान्तशब्दः इति उक्तवती किल
भगिनि.
अजन्तशब्दः वा हलन्तशब्दः वा?
दकारान्त भगिनि.
अजन्तशब्दः इत्युक्ते किं? हलन्तशब्दः किं?
सर्वे स्वराः.
सर्वे स्वराः.
अजन्तशब्द सर्वस्वर अजन्तशब्दाः. हलन्तशब्द ऐ डिन्ट् गेट् यू भगिनि. हलन्त
अजन्तशब्दाः इत्युक्ते सर्वे स्वराः.
स्वरः. आं भगिनि. डकारन्त इस् नाट् अजन्त. हलन्तशब्दः.
हलन्तशब्दः इत्युक्ते
सर्वे
व्यञ्जनानि.
व्यञ्जनानि. आं भगिनि.
इति भवति. अतः अत्र डकारन्तशब्दः इत्युक्ते कुत्र भवति? अजन्तशब्दः न, हलन्तशब्दः इति भवति.
हलन्तशब्दः भवति. आं भगिनि.
रामः इति अस्ति चेत्
अजन्तशब्दः भगिनि.
रमा
अजन्तशब्दः भगिनि.
नदी
अजन्तशब्दः भगिनि.
भवान्
हलन्तशब्दः भगिनि.
किमर्थम्?
अजन्त न, व्यञ्जन व्यञ्जनानि नकार.
किमर्थम् इत्युक्ते
इति
अहं पृच्छामि चेत् हलन्तशब्दः एव सत्यं. किमर्थम् इति मम प्रश्नः अस्ति चेत् तस्य प्रातिपदिकं भवद् इति भवति. भवद् इति शब्दस्य अन्ते दकारान्तः आगच्छति. दकारान्तः अस्ति चेत् हलन्तशब्दाः.
शङ्का अस्ति. दकारान्तशब्दस्य नाम एषः किमर्थं? दट्स् स्वराः, इज़न्ट् इट्?
उर्मिला भगिनी पृच्छति वा?
आम् आम्.
भवत्याः प्रश्नः किं? कः?
एतद् रैट्? सो देट्स् अ हलन्त शब्द. हलन्त अस्ति किन्तु विभक्त्यां वयं से एषः, एते, एतौ, एते किमर्थं? दोसार स्वराः.
सत्यं. नियमः तादृशम् अस्ति. तस्य विषयं पठामः चेत् अग्रे व्याकरणं पठामः चेत् किमर्थम् एषः, एषौ, एषः इति तादृशं भवति इति अग्रे पठामः. तत् व्याकरणविवरणम् आवश्यकम् अस्ति.
अस्तु अस्तु.
दकारान्तशब्दः केवलं कथम् एषः इति शब्दस्य किमर्थम् अकारः अत्र अन्ते आगच्छति इति प्रश्नः अस्ति किल. किमर्थम् इत्युक्ते विभक्तिः अस्ति किल, रामः रामौ रामाः, रामौ रामा इति अस्ति, विभक्तिः अस्ति किल. आरम्भकाले वयं केवलं दृष्ट्वा कण्ठस्थीकुर्मः किल, परन्तु यदा वयं व्याकरणं पठामः चेत् तत्र किमर्थम् अत्र अकारः अस्ति, किमर्थम् अत्र औकारः अस्ति, किमर्थं बहुवचने आकारः अस्ति इति कश्चन प्रत्ययः अस्ति. तस्मिन् विषये इदानीं वयं न पठामः. नियमः अस्ति, प्रत्ययः अस्ति, प्रत्ययस्य अनुसारेण वयं राम इति शब्दं योजयित्वा, प्रत्ययं योजयित्वा इदानीं स्वीकरोतु. गच्छति इति क्रियापदम् अस्ति किल, गच्छति क्रियापदं योजनेन त्वा प्रत्ययः अस्ति चेत् तस्य नूतनपदं किं भवति?
गत्वा.
गच्छति इति पदं गम् इति पद गम् इति किं धातु अस्ति, धातु अस्ति, अस्तु, धातु योजनेन, धातु योगे कश्चन प्रत्ययः योजयामः चेत्, धातुयोगे कश्चन प्रत्ययः योजयामः चेत् गत्वा इति भवति. तादृशम् अत्र प्रत्ययः किम् अस्ति, रामः इति शब्दस्य प्रत्ययः किम् अस्ति, राम इति प्रत्ययः अस्ति. तस्य योजने कश्चन प्रत्ययः अस्ति, विभक्तीनां प्रत्ययः अस्ति. सुबन्धप्रत्ययः सन्ति तस्य योजने ओ कद् अत्र रामः अह इति आवश्यकं भवति. रामौ रामयोगे अन्यप्रत्ययः अस्ति, अतः रामौ इति भवति इति सुबन्धप्रत्ययाः सन्ति. तस्मिन् विषये वयम् इदानीं न पठामः. तस्मिन् विषये व्याकरणं यदा वयं पठामः चेत् तस्मिन् समये वयं तस्मिन् विषये पठामः.
अस्तु, धन्यवादः भगिनि.
प्रश्नः चिन्तनं समीचीनमेव, इदानीं तावदेव वक्तुं शक्नोमि. अधिकं पठामः चेत् अस्माकं सरलरूपं किम् अस्ति इति वयं विस्मरामः, अतः अग्रे अस्मिन् विषये पठामः.
भवती उक्तवती भवान् इति शब्दस्य प्रातिपदिकं भवत् भवद्वा भवत् तकारान्तपदं वा
तकारान्त एव भवत् भवत् शब्दः. आम् अहमिति शब्द तावदेव भवत्येव भवति. आम्
अस्तु, धन्यवादः.
नीता भगिनी लिटल् उच्चैः वदतु भगिनी.
अस्तु एकनिमिषः. आम् इदानीं समीचीनमस्ति वा, इदानीं समीचीनं वा वीणाबेन
भगिनी?
अस्तु. एषा अथवा तादृशशब्दः एतद् इति भवति, तस्य दकारदशब्दः भवति. भवान् इति अस्ति चेत् भवत् इति शब्दः भवति, तस्य प्रातिपदिकं भवत् इति भवति, सकारान्त पुल्लिङ्गशब्दः. एषा इति शब्दः अस्ति चेत् तस्य प्रातिपदिकम् एतद् भवति, दकारान्त पुल्लिङ्गं भवति, दकारान्त स्त्रीलिङ्गं भवति, दकारान्त नपुंसकलिङ्गः अपि भवति.
आं भगिनि.
आम् इदानीं भवान् इति शब्दः अस्ति चेत् तस्य प्रातिपदिकं भवत् इति अस्ति, सकारान्त पुल्लिङ्गशब्दः. अजन्तशब्दः वा हलन्तशब्दः वा?
हलन्तशब्दः भगिनि.
किमर्थं चेत् अन्ते तकारान्तः अस्ति, तकारान्त अस्ति, व्यञ्जनम् अस्ति किल, अतः हलन्तशब्दाः इति वदामः.
अस्तु
अस्तु, धन्यवादः भगिनी. भगिनि विष्णुः एकनिमिष तस्य एतस्य नाम विष्णुः, एतस्याः नाम लक्ष्मीः, एतस्य नाम महाभारतम् इति अस्ति.
महाभारतं
भवती भवती विष्णुशब्दस्य षष्टिविभक्ति वक्तुं शक्नोति वा?
उकारन्त विष्णोः विष्णोः भगिनि विष्णोः विष्णोः
विष्णूनाम् अत्र
नत्वं भवति भगिनि. आं भगिनि नत्वं भवति निमित्तम् अस्ति भगिनि.
अत्र निमित्तं कः निमित्तं किम्?
मूर्धन्यषकार.
सत्यं सत्यं विष्णोः
मूर्धन्यषकार अस्ति
विष्णूनां. सत्यं
विष्णूनाम्. आं भगिनि.
अनन्तरं लक्ष्मीशब्दस्य षष्टि
लक्ष्मीः लक्ष्म्याः.
सत्यं
लक्ष्म्योः.
लक्ष्म्याः
लक्ष्म्योः लक्ष्मीनां.
सत्यम्. अत्र नत्वम् अस्ति वा न वा?
निमित्त न भगिनि. निमित्तं नास्ति. निमित्तं नास्ति भगिनि.
निमित्तं नास्ति वा
भगिनि?
निमित्तं नास्ति वा?
आं भगिनि. निमित्त लक्ष्मी लक्ष्मीनाम् इट् इस् लक्ष्मी इकार हियर् बाधा अस्ति भगिनि. भगिनि
आमाम् शृणोमि शृणोमि.
बाधा अस्ति भगिनि.
कः तदेव
लक्ष्मीनां मा मकार
अहं चिन्तयामि लक्ष्मीनाम् अत्र नत्वमस्ति.
लक्ष्मीनां नत्वम् अस्ति भगिनि.
लिखित्वा
एकवारं. ओके ओके भगिनि. ओके लकारः योगः अकारः योगः शकारः योग क्षा इस् का प्लस् शा नो भगिनि.
इक् प्लस् मूर्धने शकारः.
शकारः का प्लस् शकारः प्लस् नाम ओ ओके
आं सत्यमेव. शकारः अस्ति निमित्तम् अस्ति अतः नत्वं भवति परन्तु मध्ये मकारः अस्ति.
मकारः
कस्य अनुस्वरः कस्य वर्गस्य अनुस्वरः
इ
कस्य वर्गस्य कस्मिन् वर्गे अस्ति?
पा वर्गस्य पाप बाबम् अवलदायिकवर्ण भवति. सो नत्वं भवति भगिनि.
अतः लक्ष्मीनाम् एव भवति.
अतः लक्ष्मीनां भवति. आं भगिनि
सत्यं.
सारि भगिनि. ओके ओके लक्ष्मीनां. ओके
अभ्यासम् अस्ति.
आं भगिनि
अभ्यासः अस्ति चेत् समीचीनमेव.
वि वोण्ट् फर्गेट् आल्सो.
आमामां
दिस् मिस्टेक् ऐ वोन्ट् डू इट् अगेन्. ओके ओके
ओके.
आं भगिनि
मकारः अस्ति चेत् बाधा इति न चिन्तयामः. अत्र पावर्गस्य
चिन्तयामः. पावर्गस्य अन्तिम वर्ण अस्ति मा.
मकारः आं सत्यम्.
आं भगिनि मकारः. ओके लक्ष्मी
धन्यवादः.
वदतु षष्ठी बहुवचनं किमस्ति?
कः पृच्छति का पृच्छति
पृच्छति लक्ष्मीणां वा लक्ष्मीनाम्?
ऊर्मिला भगिनि वा?
आमां
भवती एव वदतु.
अत्र
लिखितवती
पवर्गस्य मकार अस्ति वा तदर्थं किन्तु बाधा अस्ति अत्र
न भवती वर्णक्रमं वर्णक्रमः लिखितवती वा
आम्
वदतु भवती सविता भगिनी धन्यवादः
ओके लकार अकार क्ष सो ककार मूर्धन्य शकारः मकार ईकारः ईकारः अधिक नकारः आकारः मकारः सो म अत्र ओ म अपि अस्ति श अपि अस्ति मूर्धन्य शकार अस्ति
मूर्धन्य शकार अस्ति चेत् किम् अस्ति
णत्वं भवति
अस्तु
सो मम समीपे एकः प्रिण्टिङ्ग् अस्ति तदर्थं इति
मम प्रश्नः अस्ति मम प्रश्नः अस्ति शकारः अस्ति चेत् निमित्तम् अस्ति किल
आम्
निमित्तम् अस्ति चेत् नत्वं भवति इति नियमः अस्ति अस्तु परन्तु नत्वं नकारः अथवा मूर्धन्य निमित्तम् अस्ति चेत् तयोः मध्ये के के वर्णाः सन्ति
म
ते के व्यवधायिकवर्णः वा अव्यवधायिकवर्णः वा
व्यवधायिकवर्णः
अस्तु वा चिन्तयित्वा वदतु अव्यवधायिकवर्णः
अव्यवधायिक मकार इकार अव्यवधायिक अस्ति
अतः अतः किं भवति अतः किं
भवति
आम् सत्यं सत्यं तावदेव
लक्ष्मीणां
सत्यं सत्यं
किन्तु मम समीपे एक तिगन्तावली अस्ति तत्र लक्ष्मी नाम शब्दकोशरूपे तदर्थम् अहं प्रश्नं पृच्छामि लक्ष्मीणां वा लक्ष्मीनाम्
इदानीं भवती एव वक्तुं शक्नोति कः दोषः अस्तु किल भवति किमर्थं चेत् भवत्याः बुद्ध्यां नियमेन ज्ञातवती कः सम्यक् अस्ति सः सम्यक् नास्ति इति दोषेण अस्ति इति
अस्तु अस्तु धन्यवादः भगिनि तदर्थम् अहं
चिन्ता मास्तु समीचीनमेव समीचीनमेव अस्तु
भगिनि
वदतु सुधा भगिनि
विष्णुः इति शब्दे नत्वं न भवति किल बहुवचने विष्णूनां
विष्णूनाम् आम् किमर्थम् इत्युक्ते भवती एव वदतु
तत्र मूर्धन्यशकारः निमित्तम् अस्ति परन्तु नकारः व्यवधायिकवर्णः अस्ति अतः नत्वं न भवति
पुनः एकवारं वर्णक्रमे सरलरीत्या वर्णक्रमः कः इति एकवारं वदतु अनन्तरं वदति चेत् सर्वेषां लाभाय भवति
अस्तु विष्णूनाम् इति वकारः इकारः शकारः णकारः उकारः विसर्गः
सत्यम्
विष्णूनाम् अत्र नकारः अपि अस्ति अकारः अपि अस्ति मकारः नकारः आकारः मकारः अपि अस्ति अत्र मूर्धन्यशकारः निमित्तं भवति परन्तु निमित्तम् अपि च तालव्यनकारस्य मध्ये नकारः यः नकारः अस्ति तद् व्यवधायिकवर्णः अस्ति अतः णत्वं न भवति.
आम् अत्र सर्वेषां कृते एकं वदामि, अत्र विष्णूनाम् इति शब्दं विष्णूनाम् इति शब्दं लिखतु, सर्वे लिखन्तु. अत्र नकारः द्वयम् अस्ति किल, नकारः द्वयम् आगच्छति. प्रथमनकारः नकारः अस्ति चेत् तत्र णत्वं भविष्यति. किमर्थं चेत् निमित्तम् अस्ति, तस्य पूर्वं निमित्तम् अस्ति, अतः तस्य अनन्तरं कः नकारः अस्ति चेत् तत्र णत्वं भविष्यति. परन्तु तस्य अनन्तरम् एकं नकारः अस्ति, तत्र णत्वं न भविष्यति. सत्यं वा सुधा भगिनि?
आं भगिनि, आम्. प्रथम णत्वं प्रातिपदिकतः एव भवति विष्णु इति. विष्णूनाम् इति अस्माकं यः रूल्स् सन्ति तेषां कृते न आगतः.
सत्यं सत्यम्. आम् आम् आम्. धन्यवादः भगिनि.
धन्यवादः.
अस्तु इदानीम् अग्रे गच्छामः. सम्भाषणमस्ति अग्रे. चम्पा भगिनी, पद्मिनी भगिनी.
आं भगिनि.
अत्र पद्मिनी भगिनी माता इति पात्रं स्वीकरोतु, पुत्रः चम्पा भगिनी भवतु.
आं भगिनि.
अस्तु
सम्भाषणं
पठतु कृपया.
उच्चैः पठत.
उच्चैः
महाभारतप्रदर्शिनी माता तां दर्शयन्ति, पुत्रं विवृणोति. माता
भगिनी एकनिमिषः. अत्र काचित् महाभारतप्रदर्शिनी इति अस्ति. प्रदर्शिनी इत्युक्ते किम्?
प्रदर्शिनी इस् अ पिक्चर्.
न, प्रदर्शिनी अत्र एक्सिबिशन् इति अर्थः.
एक्सिबिशन्
कस्य विषये प्रदर्शिनी अस्ति?
महाभारतविषये.
सत्यं सत्यं. अत्र महाभारतप्रदर्शिनी इति अस्ति. समीचीनं. प्रदर्शिनी इति शब्दः तस्य लिङ्गं किं, पदपरिचयं करोति वा?
दीर्घ ईकारान्त स्त्रीलिङ्गशब्दः.
समीचीनं. कस्य शब्दवत् भवति?
नदी शब्दवत्.
सत्यं, बहु समीचीनम्. अतः महाभारतप्रदर्शिनी इति स्त्रीलिङ्गशब्दः शब्दः अस्ति. समीचीनं. तस्य पूर्वं काचित् इति अस्ति किल, किमर्थं काचित् अस्ति इति अस्ति?
न जानामि भगिनि.
प्रश्नवाचकपदं किल भगिनि? कः, का, किं? कः इत्युक्ते पुल्लिङ्गशब्दः, पुल्लिङ्गशब्दः. का इत्युक्ते स्त्रीलिङ्गशब्दः. किम् इत्युक्ते नपुंसकलिङ्गशब्दः. अत्र काचित् इति अस्ति, किमर्थं काचित् इति अस्ति?
महाभारतप्रदर्शिनी स्त्रीलिङ्गशब्दः भवति, अतः का स्त्रीलिङ्ग काचित्.
तदेव तदेव. तस्य प्रश्नः अपि स्त्रीलिङ्गरूपम् अनुसरणीयं किल. रामः कः, सः कः, सः का इति वक्तुं शक्नुमः वा वयं?
सा का.
सा का एव समीचीनम्, अथवा सः कः
किल,
तादृशमेव. अत्र तादृशनियमः एव अत्र अपि अस्ति.
महाभारतप्रदर्शिनी स्त्रीलिङ्ग अस्ति, अनुसारेण काचित् भवति.
बहु समीचीनं, सत्यम्. अनन्तरं माता
तां दर्शयन्ति, पुत्रं विवृणोति.
सत्यम्. अत्र ताम् इत्युक्ते किम्?
तां द्वितीया विभक्ति भवति.
सत्यं. तां माता तां दर्शयन्ति इति अस्ति किल वाक्यं.
दर्शयन्ति स्त्रीलिङ्ग शब्दः अस्ति.
सत्यम्.
अतः तां स्त्रीलिङ्गे द्वितीया विभक्ति एव.
सत्यं. मम प्रश्नः अस्ति, माता कां दर्शयन्ति इति?
आम् आं भगिनि.
माता काम् इति प्रश्नशब्दः अस्ति. माता कां दर्शयन्ति?
I don't understand what प्रश्नः
अत्र पूर्वं वाक्यम् अस्ति काचित् काचित् महाभारतप्रदर्शिनी इति अस्ति. अनन्तरम् अस्ति माता तां दर्शयन्ति इति अस्ति वाक्ये.
तां महाभारतप्रदर्शिनी
माता कां दर्शयन्ति इत्युक्ते माता महाभारतप्रदर्शिनीं दर्शयन्ति. अत्र महाभारतप्रदर्शिनीम् इति वक्तव्यं. नीम् इत्युक्ते द्वितीयविभक्ति
द्वितीया
कां दर्शयन्ति इति मम प्रश्नः आसीत्.
दर्शयन्ति शत्रुं पदम् अस्ति. क्षम्यतां भगिनि,
ऊर्मिला भगिनि वा?
आम् आम् दर्शयन्मेव.
समीचीनं, सत्यं, समीचीनमेव.
अस्तु अस्तु.
शत्रुप्रत्ययः स्त्रीलिङ्गरूपम् कथं भवति चेत् पठन्ति इति अस्ति किल शत्रुप्रत्ययः, तादृशं दर्शयन् स्त्रीलिङ्गरूपम् अस्ति, अतः दर्शयन्ती इति अस्ति. माता कां दर्शयन्ती इत्युक्ते
माता महाभारतप्रदर्शिनीं दर्शयन्ति, पुत्रं विवृणोति.
अत्र किमर्थं शत्रुप्रत्ययः अत्र योजितमस्ति? माता तां दर्शयन्तीं पुत्रं विवृणोति इति अस्ति. शत्रुप्रत्ययः नियमः कः? तस्य फङ्क्षन् किं? तस्य कार्यं किम्?
कार्यद्वयं भवति.
किं कार्यद्वयं? किं किम्?
अत्र दर्शयन्ति, विवृणोति.
आम् सत्यम्. अवगच्छति वा पद्मिनी भगिनी?
आं भगिनि. विवृणोति नाम
विवरणं करोति.
एक्स्प्लेन्.
अवगच्छति वा पद्मिनी भगिनी?
आं भगिनि.
समाधानमस्ति वा? किमर्थम् अत्र शत्रुप्रत्ययः अस्ति?
आं भगिनि.
इदानीं
द्वयम् अस्ति चेत्
दर्शयन्ति अपि विवृणोति अपि.
अपि
दर्शयन्ति
एकस्मिन् काले दोनो भवति भगिनि?
हिन्दीभाषायामपि संस्कृतभाषायामपि मिलित्वा वक्तुं शक्नोति वा?
Sorry, bagini. I don't know
some.
So, both the actions are taking place at a time, no, bagini?
Satyam. Satya karna te.
So, shatranta. Okay. Bagini. Okay. Dhanyavada.
Bagini. Padmini bagini, aham anya prashnam pruchami. Idani mata tam iti asti cheta. Atra pita. अथवा माता एव माता तं पुल्लिङ्गशब्दः अस्ति चेत् कः किं भवति दर्शयन्ति इति स्थाने? शत्रुप्रत्ययः एव भवति. शत्रुप्रत्ययः अस्ति चेत् दर्शयन्ति इति अस्ति. पठन्, अतः
दर्शयन्.
समीचीनम्. इदानीं स्त्रीलिङ्गरूपम् अस्ति, अतः दर्शयन्ति.
आं भगिनि.
पठन् इति शब्दस्य स्त्रीलिङ्ग शत्रुप्रत्ययः कथं भवति?
पठन्ति.
सत्यं, तादृशं. समीचीनं. माता तां दर्शयन्ति, पुत्रं विवृणोति. समीचीनम्. इदानीं स्पष्टमस्ति वा अत्र किं कस्मिन् विषये सम्भाषणं कुर्मः इति? काचित् महाभारतप्रदर्शिनी
माता
आङ्ग्लभाषायां वदति वा भगिनि, वयं कस्मिन् विषये वयं सम्भाषणं पठामः इति?
देर् इस् महाभारत एक्सिबिशन् गोयिङ्ग् आन्.
सत्यं.
मदर् shows and explains Mahabharatam through that.
Satyam, satyam. Samichin. Agri. Mata Padmini Bhagini, Putra Champa Bhagini.
Yesha. Mahabharata Pradashini. Yetasyaha Dashanena Mahabharatam Samyat Kantum Shakyate.
Putra Vadativa. पुत्रः चम्पा भगिनी
आं भगिनि पुत्रः वदति एतस्य नाम किम्
एतस्य नाम धृतराष्ट्रः
पुत्रः वदति एतस्याः नाम किम्
एतस्याः नाम गान्धारी एतयोः पुत्राः एव कौरवाः
एतेषां पाण्डवानां च कः सम्बन्धः
पाण्डवाः एतेषां दायादाः
तेषाम् एतेषां मध्ये किं प्रवृत्तम्
महत् युद्धं प्रवृत्तं तदेव महाभारतयुद्धं तत्र कृष्णः पाण्डवपक्षे आसीत्
कृष्णः मम प्रियदेवः सः तवापि प्रियः किम्
अस्माकं देशे कृष्णः सर्वेषां प्रियः एव अहं तस्य भक्ता
भोः कृपया शनैः वदतु युवयोः सम्भाषणेन अन्येषां विघ्नः भवेत्
तथैव भवतु वत्स आवयोः विलम्बः जातः चलतु गच्छाव
समीचीनम् सुलभः अस्ति वा अवगच्छति वा अवगच्छन्ति वा भगिनी चम्पा भगिनी पद्मिनी भगिनी सुलभः अस्ति वा
सुलभः अस्ति
समीचीनं तस्मिन् विषये किञ्चित् चर्चां कुर्मः माता किं वदति प्रथमतया
माता आङ्ग्लभाषायां वदामि किं
न संस्कृते वदतु पठित्वा विवरणं करोतु
एषा महाभारतप्रदर्शिनी एतस्याः दर्शनेन महाभारतं सम्यक् अवगन्तुं शक्यते दिस् इस् महाभारत एक्स्पिशन् सीयिङ्ग् दिस् महाभारतं अण्डर्स्टाण्डिङ्ग् महाभारतं विल् बी गुड्
सत्यम् अग्रे समीचीनम् अनन्तरम् अग्रे पुत्रः किं वदति
एतस्य नाम किं
समीचीनम् एतस्य अग्रे माता किं वदति
एतस्य नाम धृतराष्ट्रः धृतराष्ट्रः एतस्याः नाम किम् एतस्य नाम धृतराष्ट्रः बिकास् पुल्लिङ्गम् एतस्याः नाम गान्धारी
सत्यं सत्यम्
एतयोः पुत्राः एव कौरवाः
किमर्थम् एतयोः अस्ति
एतयोः द्विवचनं
द्विवचनम्
षष्ठीविभक्ति
सत्यं सत्यं कयोः
तयोः मध्ये
मम प्रश्नः अस्ति कयोः पुत्राः कौरवाः
धृतराष्ट्रः च गान्धारी पुत्राः कौरवाः
सत्यं सत्यं बहु समीचीनम् अग्रे पुत्रः किं वदति
एतेषां पाण्डवानां च
न पुत्रः
एतेषां पाण्डवानां च कः सम्बन्धः
एतेषां पाण्डवानां कः सम्बन्धः भगिनी चम्पा भगिनी एतेषाम् इति शब्दस्य विभक्तिः का
षष्ठी विभक्ति बहुवचन
सत्यं सत्यम् अनन्तरं एतेषां पाण्डवानां च कः सम्बन्धः इति अस्ति एतेषाम् इत्युक्ते केषां प्रश्नः अस्ति केषाम् इति
प्रश्नवाचक
अहम् अवगच्छामि प्रश्नवाचा अपि अहं पृच्छामि अहं भवती केषां भगिनि एतेषां समीचीनमेव मम प्रश्नः अस्ति केषाम् इति केषाम् अत्र
पाण्डवानां
तदेव मम प्रश्नः आम् आम् केषां
पाण्डवानां
केषाम् इत्युक्ते शब्दः अस्ति किल मम केषाम् इति अहं पृच्छामि चेत् अहं पृच्छामि भवतीम् उद्दिश्य अहं पृच्छामि केषाम् इति
पाण्डवानां
न एकनिमिषः पूर्वस्मिन् वाक्ये तयोः पुत्राः एव कौरवाः इति अस्ति वाक्यमस्ति तयोः पुत्राः एव कौरवाः तयोः पुत्राः कौरवाः पद्मिनी भगिनी वदतु तयोः पुत्राः कौरवाः धृतराष्ट्रः गान्धारी तयोः पुत्राः कौरवाः इति इदानीं पुत्रः किं वदति तेषां पाण्डवानां च अतः सम्बन्धः इति अस्ति अत्र तेषाम् इति पदम् अस्ति किल पृच्छामि भवतीम् उद्दिश्य केषाम् इति अहं पृच्छामि
एतयोः पुत्राः एवं कौरवाः
कौरवाः पाण्डवानां च मध्ये कः सम्बन्धः केषाम् इत्युक्ते कौरवाः इति अर्थः
कौरवाः
कौरवाः पाण्डवानां कौरवाणां पाण्डवानां च कः सम्बन्धः इति पुत्रः पृच्छति
माता वदति पाण्डवाः एतेषां दायादाः दे आर् कसिन्स्
दायादः नाम किं
कसिन् रैट्
कसिन्स् आम् आम् दायादाः दायादः इत्युक्ते केवलम् एकमेव एकवचने दायादाः इति अस्ति बहुवचने आम् पुत्रः किं वदति
तेषाम् एतेषां मध्ये किं प्रवृत्तम्
अत्र तेषाम् एतेषाम् इति अस्ति किल भगिनि केषां केषां मध्ये
पाण्डवानां एन् कौरवानां मध्ये किं प्रवृत्तं
सत्यं प्रवृत्तम् इत्युक्ते किं सञ्जातं किम् अभवत् इति
प्रश्नः
अस्ति इति प्रश्नः अस्ति माता किं वदति
महत् युद्धं प्रवृत्तम्
महत् युद्धं प्रवृत्तम् अत्र युद्धम् इति शब्दस्य पदपरिचयं करोति वा
युद्धं
नपुंसकलिङ्गशब्दम्
अस्ति
सत्यं नपुंसकलिङ्गशब्दः अतः तस्य पूर्वं महत् अपि नपुंसकलिङ्गशब्दः अस्ति
अस्ति
साधारणतया अत्र रामः इति अस्ति चेत् तस्य पूर्वं महान् इति
भवति
प्रातिपदिकं महत् एव अस्ति
आं भगिनि
परन्तु प्रथमविभक्तौ महत् नपुंसकलिङ्गशब्दः अस्ति चेत् महत् महती महान्ति इति शब्दः अस्ति नूतनशब्दः तस्मिन् विषये इदानीम् अधिकं चर्चा आवश्यकं नास्ति परन्तु अभिज्ञानम् आवश्यकम् अस्ति किल अर्थः एकवारम् अहं वदामि महत् इति अत्र नपुंसकलिङ्गशब्दः प्रथमविभक्तौ महत्युद्धं प्रवृत्तं
बिग् वार् तदेव
अनन्तरं
महाभारतयुद्धं दट् वास् तदेव महाभारतयुद्धं तत्र कृष्णः पाण्डवपक्षे आसीत् कृष्णवसन्दः पाण्डव सैड्
सत्यं सत्यं पुत्रः किं वदति
कृष्णः मम प्रियदेवः सः तवापि प्रिय किं
तवापि नाम
तव योग अपि तव योग अपि
तव अपि
अवगच्छामि, परन्तु मम प्रश्नः अस्ति, तव इति पदम् अस्ति किल, तस्य मम प्रश्नः किम् इति सावधानेन शृणोतु. तव इति अस्ति चेत् पुरुषः कः?
तव अस्मद्
युष्मत् शब्दः समीचीनं, सत्यं. विभक्तिः का?
विभक्ति सृष्टि एकवचनं.
सत्यं सत्यं. अस्मद् शब्दः अस्ति चेत् अहम्
अहं
तादृशं भवति. तस्य षष्टि कथं, षष्टि विभक्ति कथं भवति?
अस्मद् मम
न न न अहम् इति प्रथमविभक्ति अस्ति चेत् तस्य षष्टि विभक्ति किं कथं भवति?
षष्टि अस्मद् मध्ये षष्टि विभक्ति प्रथमा मम द्विवचने आवयोः मम मे
मम मम प्रश्नः अस्ति केवलम् अस्मद् शब्दः अस्ति चेत् तस्य षष्टि विभक्ति कथं भवति इति. मम तावदेव उत्तरं. युष्मद् अस्ति चेत् तव
तव
प्रथमविभक्तौ अस्ति, तस्य षष्टि तव इति भवति. सः तवापि प्रियः किम्? सः नाम कः? भवतीम् उद्दिश्य अहं पृच्छामि, सः नाम कः?
सः सः तत्र
तस्य वाक्यस्य पूर्वम् एकं वाक्यम् अस्ति किल, तत् वाक्यम् एकवारं पठतु, अवगच्छतु, अनन्तरम् अग्रे आगच्छतु. पुत्रः वदति कृष्णः मम प्रियः देवः इति पुत्रः वदति किल.
आम् आम्
आम्. तस्य अनन्तरं प्रश्नः अस्ति, सः तवापि प्रियः किम् इति अस्ति किल. अहं किं पृच्छामि इति भवती अवगच्छति वा?
अहं न मम प्रिय कृष्णः वदति मम प्रियः देवः सः तवापि मम फार् एव्रिबडि तवापि प्रिय किम्?
कृष्णः मम प्रियः देवः इति वदति पुत्रः. पुत्रः मातरं पृच्छति, किं पृच्छति? सः तवापि प्रियः किम् इति पृच्छति.
तवापि मम अस्माकं मम इस्
भवती इङ्ग्लिश् जानाति, आङ्ग्लभाषा जानाति वा?
फार् आल् ऐ से
भवती आङ्ग्लभाषा जानाति वा भगिनि?
आं भगिनि.
अस्तु अस्तु अस्तु, इदानीम् एतत् प्रयत्नं करोतु, न अवगच्छति चेत् आङ्ग्लभाषायाम् अहं वदामि. सः तवापि प्रियः किम् इति पुत्रः मातरम् उद्दिश्य वदति. मम प्रश्नः अस्ति अत्र एतस्मिन् वाक्ये सः इत्युक्ते कः? सः नाम कः?
अहं न जानामि भगिनि.
भगिनि, वेन् वि रीड् अ सेण्टेन्स् वी हेव् टु कनेक्ट् द सेकेण्ड् सेण्टेन्स् वित् द फस्ट् सेण्टेन्स्. यदा वयं वाक्यं पठामः चेत् द्वितीयवाक्यं प्रथमवाक्यं पठित्वा द्वितीयवाक्यं पठामः चेत् प्रथमवाक्यं द्वितीयवाक्यं तयोः मध्ये कः सम्बन्धः इति चिन्तनीयमस्ति, आवश्यकमस्ति.
आं भगिनि,
तस्य चिन्तनं भवत्या, तस्य तादृशशक्तिः भवत्याम् अस्ति, अहं सत्यं जानामि, परन्तु नूतनभाषा अस्ति किल तस्य शैल्यां किञ्चित् अभ्यासः आवश्यकम् अस्ति. मम प्रश्नः अस्ति सः इति अस्ति चेत् कृष्णः तवापि प्रियः किम्? इस् कृष्ण युवर् फेवरेट् गाड् टु इति पृच्छति.
चंपाबेन पूछे पुत्र कहे कि कृष्ण मम प्रिय देव एटले कृष्ण मारो प्रिय देव छे.
हाँ ये तो समझी गई.
बीजा सेंटेंस में पूछे कि सह एटले ए तमारो पण प्रिय छे सु એમ પૂછે છે. પુત્ર માતાને પૂછે છે કે કૃષ્ણ તમારો પણ પ્રિય દેવ છે શું?
એટલે સહ વાપર્યું ને એટલે મને ખબર ના પડી, કારણ કે
હા એટલે સહ કૃષ્ણનું કે છે કે સહ એટલે કૃષ્ણ તમારો પણ, તવ અપી એટલે તમારો પણ પ્રિય દેવ છે
શું? તવ હું મમ જ મારા માઇન્ડમાં રહી ગયું એટલે તમારો
તવ ઇઝ લાઈક યોર્સ.
યા યા યોર્સ
ફેવરેટ ઓલસો એમ.
રાઈટ રાઈટ ઓકે યા આઈ અન્ડરસ્ટેન્ડ નાઉ.
ઓકે સ્પષ્ટમતી વદની
આમ સ્પષ્ટમ અસ્તિ ભગિની.
ઇદાની સહ નામ
પુત્ર વદતિ માતા.
ના ના મમ પ્રશ્ન અસ્તિ સહ નામ કહ.
સહ
નામ કહ માતા.
તવ means yours sah
astu
ha right sah putrah vadati mata yours krishna is also your priya.
satyam satyam atra etasmin vakye sah tavapi priyah kim iti vakyam asti kila. Asti kila
અહીંયા સહ કોને ઉદ્દેશીને કે છે એમ પૂછે છે.
સહ માતાને ઉદ્દેશીને કે છે ને?
ના ના જો આગળના પ્રશ્ન આજ્ઞામાં છે કે કૃષ્ણ મારો પ્રિય દેવ છે. મમ પ્રિય દેવ સહ એટલે અહીંયા કોણ થયું?
સહ એટલે આ થયું ને આ એટલે કૃષ્ણ. કૃષ્ણ થયું.
કૃષ્ણ થયું. કૃષ્ણ પણ પ્રિય દેવ છે એમ પૂછે છે. સહ એટલે અહીંયા કૃષ્ણ થયો.
કૃષ્ણ થયું. ઓકે
ઓકે
ક્લિયર થયું.
ભગિની
આમ ભગિની
અસ્તુ સમીચીન અસ્તુ.
કૃષ્ણ
અગ્રે અસ્તુ અગ્રે માતા કેમ વદતિ?
અસ્માકં દેશે દેશે કૃષ્ણ સર્વેષાં પ્રિય એવ. ઇન અવર કન્ટ્રી કૃષ્ણ ઇઝ ડિયર ટુ એવરીબડી.
સત્યમ.
अहं तस्य भक्ता. ऐ एम हिस डिवोटी.
डिवोटी सत्यं सत्यं. सर्वेषां इति शब्दं विभक्तिः किं का विभक्तिः वचनं किम्?
सर्वेषां
तेषां सर्वेषां तादृशं भवति चेत् षष्टि तावदेव. षष्टि बहुवचनम्
षष्टि विभक्ति बहुवचनं.
सत्यं बहु समीचीनं. देशे इति शब्दः?
देशे सप्तमी विभक्ति.
वचनं?
देशे एकवचनं.
सत्यं. अग्रे अहं रक्षकः. ओके रक्षकः भोः कृपया शनैः वदतु युवयोः सम्भाषणेन अन्येषां विघ्नः भवेत् इति वदति रक्षकः. रक्षकः नाम अत्र आफीसर् इति सेक्युरिटि तादृशं अस्ति किल सः वदति रक्षकः. भोः कृपया शनैः वदतु शनैः शनैः वदतु युवयोः. अत्र युवयोः इत्युक्ते किम्?
इन् बिट्वीन् यू टु दट् इस् द्वितीय विभक्ति रैट्.
सत्यं द्विवचनं. तव युवयोः युष्माकं. तव एकवचनमस्ति युवयोः द्विवचनमस्ति. युवयोः मध्ये सम्भाषणेन सम्भाषणेन अन्येषां विघ्नः भवेत्. सत्यं. माता किं वदति अग्रे?
तथैव भवतु, वत्स आवयोः विलम्बः जातः, चलतु गच्छाव.
आवयोः नाम
इट्स् गेटिङ्ग् लेट्.
आवयोः विलम्बः जातः, आवयोः का विभक्तिः?
आवयोः तयोः सेम्
युवयोः तयोः
तयोः षष्टिविभक्ति
कस्य षष्टिविभक्ति? प्रयत्नं करोतु, चिन्तनं करोतु, करोतु. मम शब्दस्य द्विवचनं,
शब्दस्य षष्टिविभक्ति द्विवचनं.
सत्यं सत्यम्. आवयोः आवयोः विलम्बः जातः, चलतु गच्छाव. लोट्लकारूपं तस्मिन् विषये वयं न पठितवन्तः, परिचयार्थं वदामि. चलतु गच्छाव, लेट्स् गो. सम्भाषणं सुलभम् अस्ति वा?
सुलभम् अस्ति भगिनि.
समीचीनम्, अस्तु अग्रे गच्छामः. धन्यवादः भगिनी चम्पा भगिनी पद्मिनी भगिनी, धन्यवादः.
धन्यवादः
अग्रे. धन्यवादः भगिनि. अग्रे वीणाबेन् भगिनि.
आं भगिनि,
अग्रे पठति वा अवधेयम् इति? अस्तु खलु,
आम् अवधेयम्. एतद् एकवचनं, द्विवचनं, बहुवचनम्. एतद् पुल्लिङ्गे, नपुसकलिङ्गे च स्त्रीलिङ्गे. एतस्य, एतयोः, एतेषाम्, एतस्याः, एतयोः, एतासां.
भगिनि अत्र एतद् इति शब्दः अस्ति पुल्लिङ्गे, नपुंसकलिङ्गे च स्त्रीलिङ्गे इति अस्ति किल? अत्र केवलं द्वयमेव लिखितवन्तः, एतस्य, एतयोः, एतेषाम्, एतस्याः, एतयोः, एतेषाम् इति अस्ति. अत्र पुल्लिङ्गशब्द किं, नपुंसकशब्द शब्द किं, स्त्रीलिङ्गशब्दः किम्? अस्तु, एतस्य, एतयोः, एतेषां, ते पुल्लिङ्गशब्दः वा स्त्रीलिङ्गशब्दः शब्दः वा? पुल्लिङ्ग. अस्तु, एतस्याः, एतयोः, एतेषाम् इति अस्ति
स्त्रीलिङ्ग.
अनन्तरं नपुंसकलिङ्गशब्दः कुत्र अस्ति?
नपुंसकलिङ्ग पुल्लिङ्गवत्, एतस्य, एतयोः, एतेषां.
सत्यं सत्यं, बहु समीचीनम्. अग्रे
तद् पुल्लिङ्गे, नपुंसकलिङ्गे च स्त्रीलिङ्गे. तस्य, तयोः, तेषां. तस्याः, तयोः, तासाम्.
सत्यं समीचीनं, धन्यवादः भगिनि.
धन्यवादः.
उर्मिला भगिनि.
आं भगिनि, अस्मत् त्रिषु लिङ्गेषु मम, आवयोः, अस्माकं. युष्मद् त्रिषु लिङ्गेषु तव, युवयोः, युष्माकम्.
सत्यं, धन्यवादः. एतान् शब्दान् एव वयं पठितवन्तः किल अत्र सम्भाषणे, किल एतान् सर्वनामशब्दान् एव वयं पठितवन्तः किल, पद्मिनी भगिनी, चम्पा भगिनी,
किल
स्मरति वा इदानीं? अत्र अत्र कोष्टके के के वर्ण शब्दान् अस्ति ते एव वयं पठितवन्तः. अहं पृष्टवती किल पद्मिनी भगिनीम् उद्दिश्य, अवयोः इत्युक्ते के इति, युवयोः इत्युक्ते के, ते सर्वे अत्र लिखितमस्ति. अग्रे धन्यवादः, अग्रे गच्छामः. धन्यवादः ऊर्मिला भगिनी अपि. आनन्द महोदय, आनन्द महोदय अग्रे अभ्यासः पठति वा? क्षम्यतां महोदय, अद्य सङ्गणकं, मम सङ्गणकं सम्यक् नास्ति, अतः फोन् मध्ये एव अहं योजयित्वा कक्षां चलामि. पुस्तकमस्ति वा भवत्याः भवतः पार्श्वे?
आं भगिनि, आं भगिनि. अभ्यासः आवरणे विद्यमानयोः शब्दयोः सहाय्येन वाक्यानि रचयत.
एकनिमिषः महोदय, अत्र अस्ति आवरणे विद्यमानयोः शब्दयोः साहाय्येन वाक्यानि रचयत इति अस्ति. अत्र आवरणे नाम
इन् द ब्राकेट्स्.
सत्यं. विद्यमानयोः, विद्यमानः इत्युक्ते किम्?
प्रेसेण्ट् इन् द ब्राकेट्स्.
सत्यं. विद्यमानयोः शब्दयोः इति अस्ति, किमर्थम्?
टु वर्ड्स्.
सत्यं. द्विवचने.
द्विवचनम्.
सत्यं सत्यं, बहु समीचीनम्. विद्यमानयोः शब्दयोः साहाय्येन, का विभक्तिः साहाय्येन?
तृतीया विभक्ति.
सत्यं. वाक्यानि?
प्रथमा विभक्ति बहुवचन.
सत्यं. रचयत?
मेक्.
सत्यं. नामपदं वा क्रियापदं वा?
क्रियापदं.
तस्य कर्तृपदं किम्?
वाक्यानि रचयत. कर्तृपदं
अत्र कर्तृपदम् अन्यकपि वदतु
कृपया.
न न न, उत्तमपुरुषः अस्ति.
द्वितीयं रचयत भगिनी. वाक्यानि अत्र द्वितीया भवति.
यूयं रचयत, रचयत इति बहुवचनमस्ति. यूयं रचयत,
तत्र वाक्यानि, वाक्यानि द्वितीया बहुवचनमस्ति वा? किं रचयत, वाक्यानि रचयत?
न, पठत, रचयत, लिखत, सर्वे बहुवचने अस्ति.
न, देट् सम्यक्, किन्तु वाक्यानि अत्र द्वितीया बहुवचनमस्ति वा?
आं सत्यं, द्वितीया बहुवचनं. आम् आम् आम्.
हू शुड् रैट्? यू हेव् टु रैट् रैट्?
यूयम्. आं, यूयं रचयत. यूयं रचयत इति समीचीनं, परन्तु ऊर्मिला भगिन्याः प्रश्नः अस्ति, रचयति इति शब्दस्य पूर्वं वाक्यानि इति अस्ति किल?
आं भगिनि.
वाक्यम् इति शब्दः तस्य पदपरिचयं करोति वा आनन्द महोदय?
वाक्यम् इति शब्दस्य प्रथमा विभक्ति च द्वितीया विभक्ति च बहुवचनरूपं वाक्यानि सन्ति.
सत्यं, बहु समीचीनं. पदपरिचयं करोतु इत्युक्ते कथं भवति वाक्यम् इति शब्दस्य पदपरिचयम्, अथवा वाक्यानि इति शब्दस्य पदपरिचयम्?
वाक्यम् इति शब्दस्य नपुंसकलिङ्गं प्रथमा विभक्ति बहुवचनरूपम् अथवा द्वितीया विभक्ति बहुवचनरूपम्.
सत्यं, समीचीनमेव, परन्तु वाक्य इति अकारान्त नपुंसकलिङ्गशब्दः इति वक्तव्यम्.
आं भगिनि.
अकारान्त नपुंसकलिङ्गशब्दः अस्ति, तस्य बहुवचन प्रथमा अथवा प्रथमा द्वितीया च बहुवचनमस्ति वाक्यानि. अत्र प्रथमविभक्तौ अस्ति वा द्वितीयविभक्तौ अस्ति वा इति प्रश्नः, ऊर्मिला भगिन्याः प्रश्नः.
आं भगिनि. विद्यमानशब्देन वाक्यानि, अहं चिन्तयामि प्रथमाविभक्ति बहुवचनरूपमस्ति.
किमर्थम्? सुधा भगिनी.
अस्तु भगिनि,
भवती किं चिन्तयति वाक्यानि इति
यूयं रचयत? अत्र यूयम् इति कर्तृपदम् अस्ति, अतः तत् प्रथमा विभक्ति एकवचनरूपम् अस्ति. वाक्यानि इति कर्मपदम् अस्ति, अतः द्वितीया विभक्ति बहुवचनम् अस्ति.
अत्र यूयं कर्तृपदं, सत्यं भगिनि, भवती यद् उक्तवती तत् सत्यं. यूयं कर्तृपदं भवति महोदय.
आं भगिनि.
रचयत किं भवति?
क्रियापदम्.
अत्र कर्मपदं,
वाक्यानि कर्मपदम् अस्ति, एतत् कारणेन द्वितीया विभक्ति बहुवचनरूपम् अस्ति.
सत्यं सत्यम्. अत्र पदं समानमस्ति किल, द्वितीय प्रथमा बहुवचने द्वितीय बहुवचने अपि पदं रूपं समानमस्ति, वाक्यानि वाक्यानि इति किल. परन्तु कस्य अर्थे लिखितम् अस्ति इति अस्माकं ज्ञानम् आवश्यकम् अस्ति.
आं भगिनि.
अतः अत्र कर्मपदम् अस्ति, वाक्यानि इति शब्दः अत्र कर्मपदरूपे अत्र लिखितमस्ति, वाक्यानि. यूयं कर्तृपदं, रचयत क्रियापदं, कर्मपदं वाक्यानि.
आं भगिनि.
वाक्यानि रचयत. कानि रचयत? यूयं कानि रचयत?
वाक्यानि रचयत.
सत्यं सत्यम्. इदानीं स्पष्टमस्ति वा महोदय?
आं भगिनि.
प्रश्नः अस्ति वा?
प्रश्नः नास्ति.
इदानीम् आरम्भं करोतु उदाहरणम्.
उदाहरणं वसुदेवः देवकी, पतिः पत्नी, वसुदेवस्य पत्नी देवकी, देवक्याः पतिः वसुदेवः.
सत्यम्. अग्रे.
बलरामः दुर्योधनः, गुरुः शिष्यः.
अत्र प्रथमं द्वयोः नाम लिखितमस्ति, परन्तु आवरणे सम्बन्धं लिखितमस्ति, सम्बन्धः तयोः मध्ये सम्बन्धः कः इति लिखितमस्ति. तदेव षष्ठीविभक्तिः किल?
आं भगिनि.
षष्ठीविभक्ति उपयोगं कुर्मः चेत् तयोः मध्ये कयोः मध्ये सम्बन्धः सूचयितुम् इच्छामः चेत् षष्ठीविभक्तिः अस्ति. अतः अभ्यासार्थं तादृशं लिखितम् अस्ति. भवान्
बलरामस्य शिष्यः दुर्योधनः.
सत्यम्.
दुर्योधनस्य गुरुः बलरामः.
सत्यं समीचीनम्. अग्रे.
हरिः लक्ष्मीः.
हरिः शब्दस्य षष्टि.
हरिः शब्दस्य षष्टिविभक्ति हरेः.
सत्यं सत्यम्.
हरेः पत्नी लक्ष्मीः.
सत्यम्.
एण्ड् लक्ष्मी दीर्घ इकारान्त स्त्रीलिङ्ग, तस्य षष्टिविभक्ति लक्ष्म्याः. लक्ष्म्याः पतिः हरिः.
पुनः वाक्यं हरिः लक्ष्मी तस्य सम्बन्धः वदति वा पुनः एकवारम्.
हरेः पत्नी लक्ष्मीः.
सत्यम्.
लक्ष्म्याः पतिः हरिः.
सत्यं समीचीनं समीचीनं. धन्यवादः महोदय.
धन्यवादः भगिनि.
अनन्तरं रविमहोदय.
आं भगिनि.
अग्रे पठति वा?
आं भगिनि. जमदग्निः रेणुका. जमदग्निया
इदानीम् इदानीम् आनन्दमहोदय उक्तवान् हरिः शब्दस्य षष्टि किम् इति उक्तवान् विभक्तिः. हरिः हरिशब्दस्य षष्टि कथं भवति?
हरिशब्दस्य षष्टि हरेः
इति उक्तवान् किल. इदानीं जमदग्निः इति अस्ति चेत् तादृशशब्दः एव अस्ति किल?
यस् करेक्ट्. जमदग्नेः पत्नीः रेणुका.
एकनिमिषः पत्नीः इति कुत्र अस्ति? शब्दः केवलं पत्नी इति एव अस्ति, पत्नीः इति न.
पत्नी सोरि. जमदग्नेः पत्नी रेणुका.
सत्यम्.
रेणुकायाः पतिः जमदग्निः.
सत्यं सत्यम्. अग्रे
अभिमन्युः सुभद्रा. अभिमन्युः अभिमन्येः
गुरुशब्दं जानाति वा? गुरुशब्दस्य षष्ठी कथं भवति?
गुरुशब्दस्य षष्ठी गुरोः.
अभिमन्युः शब्दस्य षष्ठी
अभिमन्योः.
सत्यं तावदेव.
अभिमन्योः माता सुभद्रा. सुभद्रायाः पुत्रः अभिमन्युः.
सत्यं सत्यं. समीचीनं. धन्यवादः महोदय.
धन्यवादः.
अग्रे किमन् माधुरी भगिनी अस्ति वा?
आं भगिनि. आवरणे विद्यमानस्य शब्दस्य षष्ठीविभक्तिरूपेण रिक्तस्थानानि पूरयत. उदाहरणं भारतस्य राजधानी.
एकनिमिषं भगिनि. अत्र आवरणे विद्यमानस्य शब्दस्य षष्ठीविभक्तिरूपेण रिक्तस्थानानि पूरयत इति अस्ति. अत्र एतस्मिन् वाक्ये कुत्रापि विशेषणविशेष भावः भवती दर्शयति वा?
विद्यमानस्य शब्दस्य
अत्र विशेष्यं किं विशेषणं किम्?
विशेष्यं शब्दस्य विशेषणं विद्यमानस्य.
तादृशं पूर्वस्मिन् अभ्यासे अपि आवरणे विद्यमानयोः शब्दयोः साहाय्येन वाक्यानि रचयते इति अस्ति किल?
आं भगिनि.
तत्रापि तादृशभावः अस्ति वा?
आं भगिनि. शब्दयोः विशेष्यम् अस्ति, विद्यमानयोः विशेषणम् अस्ति.
तयोः मध्ये वचनं किम्?
षष्ठी द्विवचनं
अस्ति. परन्तु अत्र द्वितीय अभ्यासे विद्यमानस्य शब्दस्य इति स्थाने
षष्ठी एकवचनम् अस्ति.
समीचीनम्. अग्रे पठतु उदाहरणं.
भारतस्य राजधानी देहली. भारतं पदस्य षष्ठी विभक्तिः भारतस्य.
सत्यम्.
हास्तिनपुरं. हास्तिनपुरस्य राजा धृतराष्ट्रः.
सत्यम्.
रविः इकारान्तपुल्लिङ्गशब्दः. रवेः पुत्रः कर्णः.
सत्यम्.
वेणुः उकारान्तपुल्लिङ्गशब्दः. वेणोः ध्वनिः मधुरः.
उकारान्तशब्दः अस्ति गुरुशब्दवत्. गुरोः तादृशं वेणोः ध्वनिः मधुरः. अस्तु समीचीनम्.
मुनिः इकारान्तपुल्लिङ्गशब्दः. मुनेः मनः प्रशान्तं भवति.
सत्यं समीचीनं. धन्यवादः भगिनि.
धन्यवादः भगिनि.
अग्रे माधवी भगिनि.
आं भगिनि.
पठति वा अग्रे?
आं भगिनि. लता आकारान्त स्त्रीलिङ्गशब्दः. लतायाः छाया शीतला भवति. लतायाः छाया शीतला भवति. अग्रे गुरुः ऋकारान्त पुल्लिङ्गशब्दः. गुरु अर्जुनः गुरोः प्रियः.
सत्यम्.
बुद्धिः इकारान्त पुल्लिङ्गशब्दः. मनस् मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः.
भगिनी इकारान्त पुल्लिङ्ग और इकारान्त स्त्रीलिङ्ग?
क्षम्यतां, बुद्धिः स्त्रीलिङ्गशब्दः.
स्त्रीलिङ्गशब्दः, क्षम्यतां,
बुद्धिः स्त्रीलिङ्गशब्दः. आम्, तस्मिन् विषये अन्ते विस्ताररूपेण पठामः सप्तमी सप्तमवाक्यविषये. अग्रे पठतु कृपया.
आं भगिनि. माता ऋकारान्तस्त्रीलिङ्गशब्दः. मातुः स्नेहः अतुलः.
अतुलः नाम मातुः नाम मातायाः षष्टिविभक्तिरूपं मातुः.
मातुः, आं भगिनि.
मातुः स्नेहः अतुलः नाम किम्?
अतुलः अन्लिमिटेड्.
सत्यम्, अन्ईक्वल् अन्लिमिटेड् इति अर्थः भवति. अग्रे
वस्तु उकारान्त वस्तोः वस्तु नपुंसकलिङ्ग.
अत्र वस्तु इति नपुंसकलिङ्गशब्दः अस्ति, तस्य षष्टि कथं भवति? आनन्द भगिनी जानाति वा, सहायं करोति वा?
वस्तूनां भगिनि,
वस्तुना तृतीयविभक्त.
वस्तूनः
वस्तुनः यदा नकारान्तः अस्ति तत्र नकारान्तः अधिकं भवति. वयं पूर्वं पठितवन्तः नकारान्तः उपयोगम् अधिकम् अस्ति. यदा वारिः अस्ति चेत् वारिनः भवति, मधुः अस्ति चेत् मधुनः इति भवति षष्टिरूपं. तादृशं वस्तु इति अस्ति चेत् वस्तुनः भवति. वस्तुनः नाम प्रैसस् आर् है इति अर्थः. वस्तुनः मूल्यम् अधिकं, वस्तोः इति न भवति, वस्तुनः. वस्तोः इति अस्ति चेत् तस्य लिङ्गं किं कथं भवति? शब्दः अस्ति चेत् वस्तुनः इति भवति. नकारान्तशब्दः नकारान्तः अग्रे अन्ते भवति नकारः.
वस्तुनः.
अम्बुः इति अस्ति चेत् अम्बुः इति अस्ति चेत्
अम्बूनः
अम्बुनोः अम्बूनां. वस्तु इति अस्ति चेत् त्रिषु वचनेषु वदतु.
वस्तुनः वस्तुनः
वस्तुनोः
वस्तुनोः वस्तुनः
न भगिनि, वस्तूनां. यद् बहुवचनमस्ति चेत् नाम्नाम् इति अन्ते आगच्छति.
वस्तु वस्तुनोः वस्तूनां
न भगिनि, वस्तुनः वस्तुनोः वस्तूनाम् इति भवति.
वस्तुनः वस्तुनोः वस्तुना.
सत्यं, मधु इति अस्ति चेत्
मधुनः मधुनोः मधुनां.
सत्यं सत्यं, तादृशं भवति.
धन्यवादः.
सुधा भगिनी, आम्, सप्तमवाक्ये मनसस्तु परा बुद्धिः यो बुद्धेः परसस्तु सः इति अस्ति किल वाक्यम्? आम्, अत्र अर्थः भवती जानाति वा, अथवा श्लोकं भगवद्गीतायां कं श्लोकम् अस्ति इति भवती जानाति वा?
श्लोकस्य संख्या न जानामि भगिनि.
अस्तु अस्तु, एकवारम् अहं श्लोकस्य संख्या किम् अस्ति इति अहं वदामि. तृतीयाध्याये
आं भगिनि
श्लोकमस्ति, आं तृतीयाध्याये 42 इति श्लोकम् इति संख्या. इन्द्रियाणि अस्ति वा, किं पश्यति वा भवती?
आं भगिनि.
आं पठतु एकवारं.
श्लोकं पठामि वा?
हा पठतु एकवारं पठतु.
इन्द्रियाणि पराण्याहुर् याहुर् इन्द्रियेभ्यः परं मनः, मनसस्तु परा बुद्ध्योर् बुद्धे परतस्तु सः.
एतत् श्लोकम् अस्ति, तस्य विषये एव एकं वाक्यं स्वीकृत्य अत्र लिखितमस्ति, मनसस्तु परा बुद्धिं यो बुद्धेः परसस्तु सः इति एकं वाक्यं लिखितमस्ति. तस्य अर्थः कः इत्युक्ते, इन्द्रियाणि पराणि आहुः, इन्द्रियाणि पराणि आहुः, इन्द्रियेभ्यः परं मनः. अमङ्ग् यु नो इन्द्रियास् आर् इम्पार्टेण्ट्. इन्द्रियेभ्यः परं मनः, अमङ्ग् इन्द्रियास् विच् आर् इम्पार्टेण्ट्, मनः परं मनः, इन्द्रियाणां परः मनम् अस्ति, मनसः परा बुद्धिः अस्ति. इन्द्रियाणां पूर्वं महत्वपूर्वं किम् अस्ति? बुद्धिः अस्ति. यः बुद्धेः परतः सः अस्ति आत्मा. सः नाम अत्र अस्ति आत्मा इति एव सः इति लिखितमस्ति. मनसस्तु परा बुद्धिः, बुद्धेः परतस्तु नाम आत्मा इति लिखितमस्ति. अत्र प्रथमं किम् अस्ति? आत्मा इति एव प्रमुखमस्ति. तस्य अन्ते किम् अस्ति? बुद्धिः. तस्य अन्ते किम् अस्ति? मनसः. तस्य अन्ते किम् अस्ति? इन्द्रियाणि इति सोपानेन लिखितमस्ति अत्र. अत्र बुद्धेः बुद्धिः इति शब्दस्य षष्टिविभक्ति किं भवति भगिनि?
बुद्धेः.
बुद्धेः अत्र मनसस्तु इति अस्ति किल, अत्र मनस् इति शब्दः मनः योगः अस्तु इति अस्ति. अत्र विभक्तिः का इति भवती जानाति वा? अत्र मनस् इति सकारान्त शब्दः अस्ति, हलन्तशब्दः. तस्य षष्टि मनसः इति अस्ति, सप्त पञ्चमी अपि मनसः इति भवति. अतः अत्र कथं भवति चेत्, मनसः अस्तु इति वाक्यमस्ति. मिलित्वा युगपत् कथमस्ति चेत्, मनसस्तु इति अस्ति, मनसः अस्तु, मनसस्तु इति लिखितमस्ति. अत्र पञ्चमी विभक्त्याम् अस्ति, मनसस्तु परा बुद्धिः. मनोः मनसः परा किम् अस्ति? बुद्धिः. यः बुद्धेः परं किम् अस्ति? बुद्धेः परं किम् अस्ति?
आत्मा.
तदेव अत्र तात्पर्यम् अस्ति. प्रथमम् इन्द्रियाणि अस्ति, तस्य परं किम् अस्ति? मनः. मनसः अस्ति, तस्य परं किम् अस्ति?
बुद्धिः
अस्ति. यः बुद्धेः परः किम् अस्ति? परतः किम् अस्ति? तदेव सः इत्युक्ते किं, रामः कृष्णः सोमः इति तादृशं न, सः इत्युक्ते अत्र आत्मा इति तात्पर्यमस्ति.
भगिनि,
महोदय,
अहं चिन्तयामि मनसः योगः तु नाम बट्
कम्पेर् टु मनसः. आम् सत्यं महोदय, आम् सत्यं, मनसः तु इति आम् यद् भवान् वदति तद् सत्यमेव. आम्
आम् धन्यवादः.
धन्यवादः धन्यवादः सूचनार्थं. मनसः योगः अस्तु इति न भवति, मनसः योगः तु. When the word tu is there, it means that when compared to manasaha, the previous one, buddhihi is param. When compared to buddhihi, atma is param. Iti tatparyam asti atra. Atra yo iti asti killa, yo nama sandhi buddhva atra yaha eva. Yaha eva bhavati, yaha buddhehe parataha tu mana, atma iti tatparyam atra. किञ्चित् कठिनः अस्ति चेत् त्यजतु, केवलम् एकवारं तात्पर्यं वदामः. किमर्थं चेत् बहु समीचीनम् अस्ति एतद् वाक्यम्, अतः एकवारं वदामि इति उक्तवती. अस्तु तावदेव, अत एव स्थगयामः. तस्मिन् विषये प्रश्नः अस्ति वा?
नास्ति भगिनि,
स्पष्टमस्ति वा? अस्मिन् अद्य कक्षायां किं वयं पठितवन्तः, षष्टिविभक्तः इति रूपाणि कथं प्रयोगं करणीयम् इति वयं पठितवन्तः. अर्थः अपि किम् इति वयं पठितवन्तः, अर्थः अपि पठितवन्तः, रूपमपि पठितवन्तः. अग्रे इतोपि पञ्चपुटं वा पञ्चपुटम् अधिकं वा अस्ति अभ्यासार्थं, गृहपाठरूपेण कृत्वा आगच्छति वा? सुलभः, शीघ्रमेव कर्तुं शक्यते अग्रिमवासरे.
आं भगिनि,
गृहपाठरूपेण इदानीं वयं पेज् नम्बर् 26 मध्ये वयं स्मः. 27 अपि कृत्वा आगच्छन्ति चेत् सुलभः भविष्यति.
आं भगिनि,
षष्ठम् अभ्यासं पूर्णतया कृत्वा आगच्छति चेत् अग्रे शीघ्रमेव गच्छामः नूतनविषयम्. प्रश्नः अस्ति चेत् पृच्छन्तु अथवा स्थगयामः.
नास्ति भगिनि,
अस्तु, समीचीनं समीचीनम्. सर्वेषां धन्यवादः, नमस्कारः.
शुभदिनं.
धन्यवादः भगिनि,
शुभरात्रि.
शुभदिनं भगिनि,
धन्यवादः भगिनि.
धन्यवादः, धन्यवादः, नमस्कारः.
धन्यवादः भगिनि, पुनर्मिलामः.